इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुरुषोत्तम शर्मा। आदौ मुख्य वार्ताः। महाराष्ट्रे झारखण्ड राज्ययोः निर्वाचन प्रचाराभियानं सजवं प्रवर्तते। दलानां शीर्षनेतारः राज्ययोः जनसभां पथप्रदर्शनानि च कुर्वन्ति। उपराष्ट्रपतिना जगदीप धनखड़ेन उक्तं यत् शिक्षायां निवेशः समाजसेवायाः सर्वाधिका प्रभावपूर्णा रीतिरस्ति। उत्तराखण्डे अद्य राज्यस्थापनादिवसस्य रजतमहोत्सवः महतोल्लासेन परिपाल्यते। भारतस्य पंकज आडवाणी कतरदिवसस्य दोहायां IBSF इति विश्व विलियर्ड्स प्रतिस्पर्धां विजितवान्। अपि च भारतीय पुरुष हॉकी दलस्य नायकः हरमनप्रीत सिंहः ईषमः IFIH प्लेयर ऑफ द ईयर इति पुरस्काराय, अथ च प्राक्तन हॉकी क्रीडकः PR श्रीजेशः गोलकीपर ऑफ द ईयर इति पुरस्काराय प्रचितौ। अथ वार्ताः विस्तरेण। महाराष्ट्रे भारतीय जनता पार्टीति दलस्य वरिष्ठो नेता प्रधानमन्त्री च नरेन्द्रमोदी उक्तवान् यत् केन्द्रसर्वकारेण अमरावत्यां टेक्सटाइल पार्क इति वस्त्रोद्यानस्य आधारशिलां स्थापयित्वा कार्पासोत्पादकाणां कृषकाणां कृते उद्योगाणाम् आधारभूतसंरचनायाः प्रवर्धनं कृतम्। श्रीमोदी अवदत् यत् वस्त्रोद्यानां कर्पासकृषकाणां समृद्धेः मार्गं प्रशस्तं करिष्यति।
महाराष्ट्र की सेवा का मेरे लिए सुख ही कुछ अलग है। अभी केंद्र में हमारी सरकार को 5 महीने ही हुए हैं। इन 5 महीनों में लाखों करोड़ रुपए की परियोजनाएं शुरू की गई है।
अकोलायां विदर्भ क्षेत्रस्य स्वीयां प्रथम निर्वाचन सभां संबोधयन् श्रीमोदी अवदत् यत् तृतीयकाले तस्य सर्वकारेण कोट्यावत रूप्यकाणां मूल्यानां नैकाः विकासपरियोजनाः समारब्धाः, यासु महाराष्ट्रे बहव्यः आधारभूतसंरचना परियोजनाः सम्मिलिताः सन्ति। सः विदर्भे सिञ्चनपरियोजनानां महत्त्वं प्रकाशितवान्। प्रधानमन्त्री अवदत् यत् प्राक्तन महाविकासाघाडी सर्वकारेण देवेन्द्र फडणवीस सर्वकारस्य महत्वाकांक्षिणः सिञ्चनपरियोजनाः स्थगिताः। राज्ये महायुति गठबंधनस्य पुनः सत्ता प्राप्तेः अनन्तरं वेनगंगा नलगंगा अथ पेनगंगा इंटरलाइन इति परियोजनायै स्वीकृतिः प्रदास्यते। अस्यां परियोजनायां नागपुर वर्धा मण्डलं च समेत्य पश्चिम विदर्भस्य सर्वाणि 5 मण्डलानि सिंचन प्रणाल्याः समाविष्टाः भविष्यन्ति। श्रीमोदिना एतदपि उक्तं यत् तस्य सर्वकारेण मराठीभाषा शास्त्रीयभाषायाः श्रेण्यां सम्मिलिताः, येन महाराष्ट्रस्य प्रतिष्ठा उन्नता अभवत्। अवधेयं वर्तते यत् अस्मिन् मासे 20 दिनांके राज्ये मतदानं भविष्यति। झारखण्डे विधानसभा निर्वाचन प्रचाराभियानं तीव्रगत्यां प्रचलति। NDA इण्डिया इत्येतयोः नेतारः स्वपक्षस्य प्रत्याशिनां पक्षे मतदातॄन् आकर्षयितुं राज्ये जनसभाः कुर्वन्ति। पलामूनगरस्य छतरपुरे एकां निर्वाचनसभां सम्बोधयन् भाजपादलस्य वरिष्ठो नेता अमितशाहः उक्तवान् यत् कांग्रेसनेता राहुलगान्धी OBC दलित आदिवासी विरोधी अस्ति। अपरत्र कांग्रेसनेता राहुलगान्धी भाजपादलस्य करनीतिम् आलोचनां कृतवान्। उक्तं च यत् भाजपा नेतृत्वे निर्धनानाम् अपेक्षया धनिनः अनुकूलतां भजन्ति। धनबादमण्डलस्य बाघमारानगरे निर्वाचनसभां सम्बोधयन् राहुलगान्धी आरोपितवान् यत् अनुसूचितजनजातयः अनुसूचितजातयः अन्ये च वञ्चितवर्गाः देशस्य बहुमतं जनयन्ति, परन्तु तेषां सर्वकारीयसंस्थासु पर्याप्तरूपेण प्रतिनिधित्वं नास्ति। उपराष्ट्रपतिना जगदीप धनखड़ेन उक्तं यत् शिक्षायां निवेशः समाजसेवायाः सर्वाधिका प्रभावपूर्णा रीतिरस्ति। तेन उक्तं यत् अनेन मानवसंसाधनं समृद्धं भवति, सहैव अस्माकं वर्तमानः भविष्यं च सुरक्षिते भवतः। अद्य राजधान्यां नवदिल्ल्यां राष्ट्रिय प्रौद्योगिकी संस्थानस्य चतुर्थ दीक्षांत समारोहस्य आध्यक्ष्यं निर्वहन् श्रीधनखड़ः एतद् वक्तव्यम् अयच्छत्। अपि च उक्तं यत् देशस्य शिक्षा समृद्धं पुरातनं च रिक्थं पुनः अन्वेष्टुं शक्तिं प्रददाति। उत्तराखण्डे अद्य राज्यस्थापना दिवसः महतोल्लासेन परिपाल्यते। राज्यस्य स्थापनायाः अयं रजत महोत्सवः अपि विद्यते। उपराष्ट्रपतिः जगदीप धनखड़ः, प्रधानमन्त्री नरेन्द्र मोदी, गृहमन्त्री अमित शाहश्च उत्तराखण्डवासिभ्यः शुभकामनाः प्रदत्तवन्तः। अत्रावसरे सामाजिक संचार पटले उपराष्ट्रपतिना उक्तं यत् उत्तराखण्डाय प्राचीन सौन्दर्यस्य आध्यात्मिक समृद्धेः च आशीर्वादः वर्तते। अमुना कामना कृता यत् धन्यं राज्यं वृद्धिं लसेत्, उत्तरोत्तर प्रगतिं विकासं च लभेत्। प्रधानमन्त्रिणा नरेन्द्र मोदिना विकासे उत्कृष्ट प्रगतये उत्तराखण्डस्य प्रशंसा कृता। उत्तराखण्डस्य पञ्चविंशे स्थापना दिवसावसरे राष्ट्रम् आभासीय माध्यमेन सम्बोधयन् प्रधानमन्त्री अवोचत् यत् राष्ट्रं भाविन्यां पञ्चविंशति वर्षेषु विकसित भारताय विकसितोत्तराखण्डस्य संकल्पं पूरयत् द्रक्ष्यति।
उत्तराखण्ड के उज्ज्वल भविष्य के लिए अगले 25 वर्ष की यात्रा शुरू कर दी है। इसमें एक सुखद संयोग भी है, ये यात्रा ऐसे समय में होगी जब देश भी 25 वर्षों के अमृत काल में है, यानी विकसित भारत के लिए विकसित उत्तराखंड। देश इस संकल्प को इसी कालखंड में पूरा होते देखेगा।
अन्यैरपि विशिष्टजनैः उत्तराखण्ड राज्यस्थापना दिवसावसरे उत्तराखण्डस्य वासिभ्यः शुभकामनाः प्रदत्ताः। प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् उद्योगपतिः समाजसेवी च रतन टाटा वर्यस्य जीवनं प्रेरयति यत् नेतृत्वं न केवलं निजोपलब्धिभ्यः अपि तु अत्यन्तं दुर्बलानां परिचर्यायाः क्षमताधारेण माप्यते। एकस्मिन् ओपीईडी इति राष्ट्रिय दैनिक पत्रे श्रीमोदी अवदत् यत् रतन टाटा वर्यस्य देहावसानस्य एकमासः अभवत्, किन्तु तस्य अनुपस्थितिः समाजस्य प्रत्येकस्मिन् क्षेत्रे न केवलं राष्ट्रे अपि तु सम्पूर्णे विश्वे अनुभूयते। प्रधानमन्त्रिणा रतन टाटा वर्यस्य योगदानस्य स्मरणं विधाय उक्तं यत् विगतेषु केषुचित् वर्षेषु टाटा देशस्य स्टार्टअप पारिस्थितिकी तंत्रस्य मार्गदर्शनाय प्रसिद्धः अभवत्। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। पूर्वी मध्य रेलवे संभागः छठपूजायाः अनन्तरं बिहारात् प्रत्यागन्तृणां यात्रिणां सम्मर्दं निध्याय आगामि 15 दिनावधौ 44-400 विशेष रेलयानानां संचालनं करिष्यति। यात्रिणां सुविध्यां निध्याय एतेषां विशेष रेलयानानां संचालनं गतदिनात् आरब्धम्। आकाशवाण्या सह रेलविभागस्य मुख्य जनसम्पर्काधिकारी सरस्वती चन्द्रः अवोचत् यत् अस्मिन् वर्षे यात्रिणां समेधितां संख्यां निध्याय गतवर्षस्य तुलनायां 70+ अतिरिक्त रेलयानानि सञ्चाल्यन्ते। भारतस्य पंकज आडवाणी कतरदेशस्य दोहायां IBF इति विश्वविलियट् प्रतिस्पर्धां विजितवान्। निर्णायकस्पर्धायां तेन इंग्लैण्डस्य रॉबर्ट हॉल इत्यसौ पराजितः। श्रृंखलायां भारतस्य सौरभ कोठारी कांस्यपदकं विजितवान्। भारतीय पुरुष हॉकी दलस्य नायकः हरमनप्रीत सिंहः ऐषमः IFH प्लेयर ऑफ द ईयर इति पुरस्काराय प्रचितः। सममेव प्राक्तन हॉकी क्रीडकः PR श्रीजेशः गोलकीपर ऑफ द ईयर इति पुरस्कारं विजितवान्। इति वार्ताः।